ॐ नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। ब्रह्मोवाच, ज्ञातोऽसि मेऽद्य सुचिरान् ननु देहभाजाम्, न ज्ञायते भगवतो गतिरित्यवद्यम्। नान्यत्वदस्ति भगवन्नपि तन्न शुद्धम्, मायागुणव्यतिकराद् यदुरुर्विभासि। रूपं यदेतदवबोधरसोदयेन सश्वन्निवृत्ततमसा सदनुग्रहाय, आदौ गृहीतमवतारशतैकबीजम्, यन्नाभिपद्मभवनादहमाविरासम्। नातः परम् परमयद्भवतः स्वरूपमानन्दमात्रमविकल्पमविद्धवर्चः। पश्यामि विश्वसृजमेकमविश्वमात्मन्, भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि। तद्वा इदम् भुवनमङ्गलमङ्गलाय ध्यानेऽस्मनो दर्शितम् त उपासकानाम्। तस्मै नमो भगवते नु विधेम तुभ्यम्, योनादृतो नरकभाग्भिरसत्प्रसङ्गैः। ये तु त्वदीयचरणाम्बुजकोशगन्धम्, जिग्रन्ति कर्णविवरैः श्रुतिवातनीतम्। भक्त्या गृहीतचरणः परया च तेषाम्, नापैषिनाथ हृदयाम्बुरुहात् स्वपुंसाम्। तावद्भयम् द्रविणगेहसुरिन्निमित्तम्, शोकस्पृहा परिभवो विपुलश्च लोभः। तावन्नमेत्य सदवग्रह आर्तिमूलम्, यावन्न तेऽङ्ग्रिमभयम् प्रवृणीतलोकः। दैवेन ते हतधियो भवतः प्रसङ्गात्, सर्वाशुभोपशमनाद्विमुखेन्द्रियाये। कुर्वन्ति कामसुकलेशलवाय दीना, लोभाभिभूतमनसो कुशलानि शश्वत्। क्षुत्रित्रिधातुभिरिमा मुहुरर्द्यमानाः, शीतोष्णवातवर्षैरितरेतराच्च। कामाग्निनाच्युतरुषा च सुदुर्भरेण, सम्पश्यतो मनौरुक्रमसीदते मे। यावत् पृथक्त्वमिदमात्मनैन्द्रियार्थ मायाबलम् भगवतो जन ईश पश्येत्, तावन्न संसृतिरसौ प्रतिसङ्क्रमेत, व्यर्थापि दुःखनिवहम् वहति क्रियार्था। अन्यापृतार्थकरणा निशिनिश्रयाना, नानामनोरथधिया क्षणभग्ननिद्राः। दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति। त्वम् भावयोगपरिभावितहृत् सरोज, आस्य श्रुते क्षितपथो ननु नाथ पुंसाम्। यद्यद्धियातौरुगाय विभावयन्ति, तत्तद्वपुः प्रणयसे सदनुग्रहाय। नातिप्रसीदति तथोपचितोपचारैराराधित सुरगणैहृदि बद्धकामैः। यत्सर्वभूतदयया सदलभ्ययैको, नानाजनेष्वहितः सुहृदन्तरात्मा। पुंसामतो विविधकर्मभिरध्वराद्यैर्दानेन चोग्रतपसा व्रतचर्यया च। आराधनम् भगवतस्तव सत्क्रियार्थो, धर्मोऽर्पितः कर्हि चिद्ध्रियते न यत्र। शश्वत्स्वरूपमसैव निपीतभेदमोहाय बोधधिषणाय नमः परस्मै। विश्वोद्भवस्थितिलयेषु निमित्तलीलारासाय ते नम इदम् चक्रिमेश्वराय। यस्यावतारगुणकर्मविडम्बनानि, नामानि येषु विगमे विवशा गृह्णन्ति, तेनैकजन्मशमलम् सहसैव हित्वा संयान्त्यपावृतमृतम् तमजम् प्रपद्ये। यो वाहम् च गिरिशश्च विपुः स्वयम् च, स्थित्युद्भव प्रलय हेतव आत्ममूलम्। भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस्तस्मै नमो भगवते भुवनद्रुमाय। लोको विकर्मनिरतः कुशले प्रमत्तः, कर्मण्ययम् त्वदुदिते भवदर्चने स्वे। यस्तावदस्य बलवानिह जीविताशाम्, सद्यश्छिन्नत्य निमिषाय नमोऽस्तु तस्मै। यस्माद्विभेम्यहमपि द्विपरार्धधिष्ण्य, मध्यासितः सकललोक नमस्कृतम् यत्। तेपे तपो बहुसवो वरुरुत्समानस्तस्मै नमो भगवतेऽधिमखाय तुभ्यम्। तिर्यङ् मनुष्य विबुधादिषु जीवयो निःस्वात्मेच्छयात्मकृतसेतु परीप्सयायः। रेमे निरस्तरतिरप्यवरुद्धदेहस्तस्मै नमो भगवते पुरुषोत्तमाय। यो विद्ययानुपहतोऽपि दशार्धवृत्त्या, निद्रामुवाह जठरीकृतलोकयात्रः। अन्तर्जले हि कशिपुस्पर्शानुकूलाम्, भीमोर्मिमालिनी जनस्य सुखम् विवृण्वन्। यन्नाभिपद्मभवनादहमासमीड्य, लोकत्रयोपकरणो यदनुग्रहेण, तस्मै नमस्त उदरस्थभवाय योग निद्रावसान विकसन्नलिनेक्षणाय। सोऽयम् समस्तजगताम् सुहृदेक आत्मा, सत्त्वेन यन्हृडयते भगवान् भगेन। तेनैव मे दृशमनुस्पृशताद्यथाहम्, स्रक्ष्यामि पूर्ववदिदम् प्रणतप्रियोऽसौ। एष प्रपन्नवरदो रमयात्मशक्त्या, यद्यत्करिष्यति गृहीतगुणावतारः। तस्मिन् स्वविक्रममिदम् सृजतोऽपि चेतो, युञ्जीतकर्मशमलम् च यथा विजय्याम्। नाभिर्रदादि यसतोम्भसि यस्य पुंसो विज्ञान शक्तिरहमासमनन्त शक्तेः रूपं विचित्रमिदमस्य विवृण्वतो मे मारीरिशीष्ट निगमस्य गिरां विसर्गः। सोऽसावदभ्रकरुणो भगवान् विवृद्ध प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् उत्थाय विश्वविजयाय च नो विषादम् माध्व्या गिरापनयतात् पुरुषः पुराणः। मैत्रेय उवाच स्वसंभवं निशाम्यैवं तपो विद्यासमाधिभिः यावन्मनोवच स्तुत्वा विररामः सखिन्नवत् अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः विषण्णचेतसं तेन कल्पव्यतिकराम्भसा लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः तमाहागाधया वाचा कश्मलं शमयन्निव। श्रीभगवानुवाच मा वेदगर्भगास्तन्त्रीं सर्ग उद्यममावह तन्मया पादितं यज्ञे यन्मां प्रार्थयते भवान् भूयस्त्वं तपातिष्ठ विद्यां चैव मदाश्रयां ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य पावृतान् तथा आत्मनि लोके च भक्तियुक्तः समाहितः द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनः। यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितं प्रतिचक्षीत मां लोको जह्यात्तर्येव कश्मलं यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति। नानाकर्मवितानेन प्रजाबह्वीः शिशृक्षतः नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः। ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः यन्मनो मयि निर्बद्धं प्रजा संसृजितोऽपि ते ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनां यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितो बहिः। नालेन सलिले मूलं पुष्करस्य विचिन्वतः यच्च कर्थाङ्गमत्स्तोत्रं मत्कथाभ्युदयाङ्कितं यद्वा तपसि ते निष्ठा स एष मदनुग्रहः। प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः। पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि अतो मयि रतिं कुर्यात् देहादिर्यत्कृते प्रियः। सर्ववेदमयेनेदमात्मनात्मात्मयोनिना प्रजासृज यथा पूर्वं याश्च मय्यनुशेरते। मैत्रेय उवाच तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे नवमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनुपायिनी।